प्रिय मित्राणि सादराभिवादनम् आकाशवाणीतः प्रसार्यमाणया संस्कृत साप्ताहिकीति संस्कृतस्य साप्ताहिक पत्रिकया सह वयम् उपस्थिताः स्मः। अहमस्मि कार्यक्रमस्य उद्घोषकः कृष्णप्रसादोपाध्यायः। आत्मीयाः श्रोतारः, भवन्तः जानन्त्येव यत् कार्यक्रमस्य आदौ मङ्गलाचरणरूपेण प्रस्तूयते सुभाषितम्। उपक्रमेऽस्मिन् श्रीमती ऋचा झा समुपस्थितास्ति आत्मनः उद्धारपरकेन गीताज्ञानसम्बलितेन सुभाषितेन सह।
उद्धरेदात्मनात्मानम् नात्मानमवसादयेत्, आत्मैव ह्यात्मनो बन्धुः, आत्मैव रिपुरात्मनः। अर्थात अपने मन के द्वारा अपना उद्धार करें, न कि खुद को शोकग्रस्त करें। आप स्वयं ही अपने सबसे अच्छे मित्र हैं और स्वयं ही अपने सबसे बड़े शत्रु भी।
कर्णप्रियायो सुभाषितायो साधुवादाः ऋचायै, दयालवः श्रोतारः। कथं सुन्दररीत्या अस्माकं मार्गदर्शनं कृतम् अनेन सुभाषितेन। मित्राणि, संस्कृतसाहित्ये अनन्तमात्रायाम् उपलभ्यमानात् स्तोत्रसाहित्यात् दशरथकृत शनिस्तोत्रात् कतिपयश्लोकैः सह उपस्थिता अस्ति रिङ्कू जोशीवर्या प्रसङ्गाख्येऽस्मिन् प्रभागे।
नमः कृष्णाय नीलाय श्रुतिकण्ठ निभाय च, नमः कालाग्निरूपाय कृतान्ताय च वै नमः। नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च, नमो विशालनेत्राय शुष्कोदरभयाकृते, नमो पुष्कलगात्राय स्थूलरोमणेऽथ वै नमः। नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते। नमस्ते कोटरक्षाय दुर्नरीक्षाय वै नमः। नमो घोराय रौद्राय भीषणाय कपालिने। नमस्ते सर्वभक्षाय बलिमुख नमोऽस्तु ते।
मित्राणि, भवन्तः सर्वेपि अस्मै श्रद्धास्पदाय प्रसारणाय कृतज्ञतां प्रकटयितुं शक्नुवन्ति रिङ्कुवर्यां प्रति। अयि भो सरसिकाः श्रोतारः, ज्ञान विज्ञान विभागस्य अग्रिमे अध्याये अद्य संस्कृतस्य विद्वान् SCERT इत्यस्मिन् संस्कृतस्य सहायक प्राध्यापक भूतश्च डॉक्टर सुमित कुमार शर्मा वर्यः चर्चायै अस्माभिः सह उपस्थितोऽस्ति। अस्याः चर्चायाः सञ्चालनम् अस्माकं वरिष्ठसहयोगी डॉक्टर युवराज भट्टरायी इत्येषः करोति। अस्मिन् संवादे राष्ट्रिय शिक्षा नीतेः अन्तर्गतं संस्कृतस्य वर्तमान स्थितिः इत्यादयः विषयाः चर्च्यन्ते।
नमो नमः मित्राणि, अद्य अस्माकं संस्कृत साप्ताहिकी कार्यक्रमे विशेष अतिथि रूपेण आसीनो वर्तते मनीषी मूर्धन्यः, संस्कृत कथाकारः, कविः, संस्कृत सेवकः डॉक्टर सुमित शर्मा। मान्य महोदय, स्वागतमस्ति अत्र भवतः संस्कृत साप्ताहिकी कार्यक्रमे।
नित्रामस्मि प्रसन्नः।
महोदय, भवान् खलु शैक्षिक समाजे आधुनिक संस्कृत सम्भाषणस्य रुचिररीत्या प्रशिक्षणार्थं सविशेषं प्रसिद्ध्यति। आधुनिक संस्कृत शिक्षण प्रशिक्षण क्षेत्रे कथा प्रकथन, काव्य प्रस्तवन, गीत गान, नाट्य संवादित संवादादि माध्यमेन सम्भाषण शिक्षणं च भवतः सर्वत्र प्रशंसार्हम् इति तु विदितमेव। अतः अहं ज्ञातुमिहे यत् भवतः या पठन पाठन शैली वर्तते तत्र को वा विशेषः वर्तते येन सर्वे संस्कृतं पठितुं समाकृष्टाः भवन्ति?
सत्यम् आह भवान्, प्रायः किं भवति, यदा शिक्षकः कक्षायां पाठयति तदा सः यदा कक्षायां प्रवेशं करोति तदा साक्षात् पुस्तकं निष्कासयन्तु वयम् अद्य प्रथमं पाठं पठामः, तादृशी वार्ता प्रायः भवति।
सत्यं।
किं भवति, अस्माकं यदि वर्तमानपरिप्रेक्ष्ये वयं पश्यामः अनुवादरीति अधिकरूपेण प्रायः शिक्षकाः आचरन्ति।
सत्यम्।
अहं चिन्तयामि यत् अनुवादः न करणीयः, यतोहि वयं संस्कृतभाषायाः पाठनं कुर्मः, हिन्दीभाषायाः न कुर्मः,
एवम्
इतरभाषाणामपि न कुर्मः।
सत्यम्।
अस्माकं भाषायां विधाः भवन्ति, तो विधानुगुणम् अस्माकं प्रस्तुतिकरणं भवतु। यथा प्रायः शिक्षकाणां मनसि विचारः भवति पाठस्य समाप्ति शीघ्रमेव भवतु, पाठ्यक्रमस्य पूर्तिः अस्माभिः करणीया अस्ति, अस्माकं दायित्वं तथा अस्ति, किन्तु तथा न। यदि एकः शिक्षकः एकसप्ताहपर्यन्तम् अपि एकं पाठं पाठयति चेत् उत्तमम्।
सत्यम्।
गतिविधि माध्यमेन पाठस्य प्रसारः भवतु। पुनः पाठ्यप्रसारसमये ये अस्माकम् अभ्यासप्रश्नाः भवन्ति, यः निर्माणसमिति तत्र योजितवती अस्ति, तेषाम् अभ्यासप्रश्नानां समाधानमपि पाठे यदा शिक्षकः पाठयति तदा तेषां समाधानं भवतु।
सत्यम्।
अनेन किं भवति, छात्राः रुचिवन्तः भवन्ति, रुचिमन्ताः भवन्ति। एकम् अहम् उदाहरणं ददामि। ह्य एव अहं भारतीयशिक्षाबोर्ड पक्षतः एकम् आन्लैन् सत्रं स्वीकृतवान् अस्मि। तत्र तृतीयकक्षायाः एकः पाठः अस्ति, रम्यं मम वातावरणम्।
एवं
पाठे पङ्क्ति अस्ति, मन्दं मन्दं वायुः प्रवहति, दारावेष्टित चन्द्रो विहरति। एतत् पद्यपाठमस्ति, एतस्य स्वस्वरगायनं भवतु। यथा सर्वप्रथमं रम्यं मम वातावरणम्, रम्यं मम वातावरणम्, मन्दं मन्दं वायुः प्रवहति, तारावेष्टित चन्द्रो विहरति, इत्थं वयं गायनं कुर्मः।
एवम्
अनेन छात्राः रुचिमन्ताः भवन्ति,
तेषां ध्यानाकर्षणमपि भवति।
सत्यं, ते आनन्दिताः भवन्ति कक्षायां। पुनः मन्दं मन्दं वायुः प्रवहति, एतस्य वयम् अनुवादं न कुर्मः। मन्दं मन्दम् इति पदस्य भावार्थप्रदानाय, भावार्थविषये चर्चां करणाय तत्र मन्दं मन्दम् इति स्वीकुर्मश्चेत् एकः गजः कथं गच्छति, मन्दं मन्दं गच्छति। एकः वृद्धः कथं गच्छति, मन्दं मन्दं गच्छति।
सत्यम्।
एकः रोगी कथं वदति, मन्दं मन्दं वदति।
बहुविधप्रयोगेण
वयं कर्तुं शक्नुमः, अनुवादरीत्या न।
अस्तु अस्तु। मान्यवर, संस्कृतं खलु भारतीयसमाजे जनमानसेषु प्राचीनकालादेव विराजते, परन्तु सम्प्रति इत्थम् अनुभूयते यत् भारतीयसमाजे संस्कृतस्य लोकप्रियता तावती नास्ति। किमर्थं समाजः एवं संस्कृतात् विमुखीभवदस्ति, अस्मिन् विषये किमस्ति भवतः अभिमतम्? अत्र संस्कृत अनुरागित्वेन, संस्कृत प्राध्यापकत्वेन अथवा रचनाकारत्वेन भवताम् अभिमतं वयं ज्ञातुम् इच्छामः।
जनाः प्रायः वदन्ति, अहमपि शृणोमि, संस्कृतं नास्ति।
एवं
किन्तु अहं चिन्तयामि संस्कृतं सर्वत्र अस्ति।
एवं
किन्तु तस्याः स्थिति कथम् अस्ति तदेकवारम् अस्माभिः द्रष्टव्यम्। यथा दद्नि घृतं भवति तथा संस्कृतम् अस्ति, किन्तु तस्य मथनं मन्थनम् आवश्यकम् अस्ति,
प्रच्छन्नरूपेण इति
अस्ति एव, सर्वत्र अस्ति। अस्मासु अपि संस्कृति तादृशी भावना अस्ति, किन्तु किमस्ति, वर्तमानसमये प्रौद्योगिकयुगः वर्तते, जनाः आजीविकानिमित्तं सर्वं धावनं कुर्वन्तः सन्ति। यथा एते सन्ति नाम IMNP इति नाम उच्चस्तरीयाः याः संस्थाः सन्ति, पुनः चिकित्साक्षेत्रे, पुनः विदेशगमनं, पुनः तथा किमस्ति आङ्ग्लभाषायाः तत्र सम्भाषणाद् स्तरः इदानीं सर्वत्र दृश्यते। सः आङ्ग्लं वदति इति तस्य सम्मानं,
तस्य चाकचिक्यं दृष्ट्वा
सत्यं, पुनः जन तथा। किन्तु संस्कृतम् अस्ति, संस्कृतं सर्वत्र अस्ति, सर्वासां भाषाणां मूलं संस्कृतमेव अस्ति। भवान् पश्यतु, कुत्रापि भवान् पश्यतु, तथा नास्ति। केवलम् एतत् अस्माकं तत्र दायित्वं भवतु, नाम संस्कृतं व्यावहारिकी भाषा भवेत्, अधिकाधिकजनाः सम्भाषणं कुर्युः।
वस्तुतः भाषा नाम तस्य भाष्यमाणं स्वरूपं किमपि स्थापनीयम् इति भवद्भिः अत्र प्रतिपाद्यते।
सत्यं। किमस्ति, भावप्रसाराय भाषायाः आवश्यकता, भाषा एकं माध्यमम् अस्ति खलु।
सत्यं।
तथा अस्माकं तत्र कार्याणि करणीयानि।
अस्तु अस्तु महोदय, अधुना साक्षात् अत्र वयं चलामः NEP मध्ये। NEP इति राष्ट्रिय शिक्षानीतेः अन्तर्गतं संस्कृतस्य वर्तमान स्थितिं भवान् कथं पश्यति? किम् एषा नीतिः भारतीय भाषाणां संवर्धने केन्द्रीय भूमिकां निर्वहति? तद्विषये किमस्ति भवता प्रतिपादनीयम्?
पश्यतु, राष्ट्रिय शिक्षानीति, नूतन शिक्षानीति इति नाम्ना अपि जनाः व्यवहरन्ति।
एवं
चतुर्विंशति वर्षानन्तरम् एषा नीति निर्मिता अस्ति।
एवं
तु सर्वप्रथमं तु सर्वे जनाः प्रतीक्षारताः आसन् कि नूतन शिक्षानीति आगच्छति, तत्र किमपि नूतनं मिलिष्यति एव, प्रायः चिन्तनं भवति अपि। तत्र शिक्षानीतौ प्रथमे भागे, पुनश्च तत्र चतुर्थे अध्याये विद्यालयेषु पाठ्यक्रमः शिक्षणशास्त्रं च विषये चर्चा कृता वर्तते।
सत्यम्।
अग्रे वयं पश्यामश्चेत् तत्र शिक्षक विषये अपि विस्तृता चर्चा अस्ति शिक्षानीतौ तत्र शिक्षकः कीदृशः भवतु पुनः तस्य तृतीये भागे द्वाविंशति अध्याये भारतीय भाषाणां कथानां संस्कृतश्च संवर्धनम् इति विषयः अपि तत्र चर्चितः किमस्ति नाम तत्र वयं पश्यामः यदि तत्र 22.4 इति यदि वयं बिन्दु पश्यामः तत्र परस्पर सम्भाषण समये बहुभाषिकत्वं भवेत् इति तत्र लिखितमस्ति मल्टीलिङ्ग्वल् यदि वयम् आङ्ग्लभाषायां वदामः तथा अपि अस्ति पुनः तत्र स्पष्टं लिखितमस्ति यत् प्राचीन भारतीय सनातन प्रकृष्ट ज्ञान परम्परा चिन्तनं च अस्याः शिक्षणनीतेः मार्गदीपकः अस्ति
एवं
तत्र लिखितमस्ति
अत्र बहुभाषावादः खलु स्थापितः अहम् अपि चिन्तयामि स्म यत् यदा अधुना आधुनिकसमये यदा एकभाषायाः किमपि प्रभुत्वं दृश्यते आङ्ग्लभाषायाः तत्र सर्वाधिकं वर्तते तेन अस्माकं या संस्कृतिः वर्तते बहुविधा संस्कृतिः सा अपि हानिं गच्छति इति
सत्यं गच्छति एव किं भवति यथा व्यवहारः भवति तस्य तथा परिणामः अपि भवति
सत्यं
वयं सर्वत्र पश्यामः आङ्ग्लभाषमाणाः जनाः भवन्ति ये अस्माकं बालाः सन्ति ते परिवेशेन अधिकम् अधिगच्छन्ति
सत्यं
तु यथा परिवेशः तेषां पुरतः वर्तते तेन ते या अस्माकं मूलमस्ति संस्कृतमस्ति अस्माकं सांस्कृतिकी विरासत् अस्ति या अन्याः भाषाः सन्ति तासां विषये तस्य चिन्तनमेव न भवति
यथा अधुना भवान् अत्र उक्तवान् तथैव मम अपि मन्तव्यमस्ति यत् छात्राः कक्षातः बहिः अधिकं शिक्षणं कुर्वन्ति
सत्यम्
अन्तस्तु तु केवलं पाठ्यक्रमनिर्धारितमेव पठन्ति न
सत्यं सत्यं
सांस्कृतिकं यत् परिवेशम् अस्ति तत् बहिस्तादेव ते
अत्र एकः उत्तमः श्लोकः अस्ति अहं स्मरामि आचार्यात् पादमाधत्ते पादं शिष्यसुमेधया पादं सब्रह्मचारिभिः पादम कालक्रमेण च
एवं
यथा भवान् उक्तवान् कक्षातः बहिः अधिकं ते अधिगच्छन्ति
अस्तु अस्तु अतोपि सुमित महोदय NCF इति नित्यां निर्दिष्टानां R1 R2 R3 प्रावधानानाम् आधारेण विद्यालयस्तरे संस्कृतशिक्षणस्य प्रभावः एधिष्यते उत न्यूनी भविष्यति तद्विषये किमपि उच्यताम्
उत्तमः सुष्ठु प्रश्नः उत्थापितः अत्र भवता
एवं
प्रायः इदानीं वयं चर्चयामः एतस्य विषये NEP मध्ये यदस्ति यद् लिखितमस्ति यद् वर्णितमस्ति तद् NCF मध्ये नास्ति
एवं
पश्यतु भवान् अलौकिकं कार्यम् NEP मध्ये यद् लिखितमस्ति NCF मध्ये तत्र बहु न्यूनता अस्ति
वदतो व्याघातमेव खलु
पुनः NCF मध्ये चर्चितमस्ति भवान् पश्यतु CBSE केन्द्रीय माध्यमिक शिक्षा बोर्ड ततः अपि सर्कुलर् द्वयं प्रसारितम्
एवं
तत्र भिन्नम्
एवम्
NEP यदस्ति NCF किमपि अन्यद् वदति सर्कुलर् किमपि भिन्नं वदति
एवं
तत्र पश्यतु इदानीं अयं यदस्ति प्रसङ्गः बहु उत्तमः प्रसङ्गः भवान् अत्र उत्थापितः अस्ति किमस्ति R1 R2 R3 तत्र R1 मध्ये चतस्रः भाषा एव स्वीकृताः आङ्ग्लभाषा हिन्दीभाषा कन्नडभाषा उर्दू जबान् इति स्वीकृतम् R2 मध्ये अपि इतः एव एका भाषा छात्राः स्वीकरिष्यन्ति R3 मध्ये अन्याः अवशिष्टाः याः भाषाः सन्ति नाम 45 इति भाषाः सन्ति टेबल् नम्बर् 7 मध्ये यत् सर्कुलर् CBSE पक्षतः निष्कासिताः तत्र याः भाषाः सन्ति ततः सः R3 स्वीकरिष्यति
एवं
किन्तु मम प्रश्नः अस्ति न केवलं मम प्रश्नः ये के अपि विद्यालये पाठयन्ति तेषां समेषां प्रश्नः वर्तते यत् किमर्थं चतस्रः भाषा तत्र किमर्थं ते संकुचितकरणं कृतवन्तः सर्वाः भाषाः भवन्तु
यदि तत्र R इति रीजनल् त्वेन स्वीक्रियते क्षत्रियभाषा तु अन्याः अपि सन्ति
सत्यं पश्यतु तत्र किमस्ति तत्र लिखितमपि अस्ति NEP मध्ये लिखितमस्ति छात्राः तिस्राः भाषाः पठिष्यन्ति तत्र भाषाद्वयं भारतीयभाषा भवतु एका भाषा तत्र विदेशीभाषा इति वैदेशिकी भाषा भवितुम् अर्हति किन्तु R1 R2 R3 इति यद् सर्कुलर् निष्कासितः तत्र R1 मध्ये चतस्रः R2 मध्ये अपि ततः एव R3 मध्ये बहु तत्र स्पष्टता नास्ति यतोहि एकम् इतोपि सर्कुलर् ते निष्कासितवन्तः तत्र किमस्ति षष्ठी कक्षातः सः R3 स्वीकर्तुं शक्नोति किमर्थं सप्तमी अष्टमी नवमी मध्ये स्पष्टता नास्ति पुनः यदि कश्चन बालः सः तमिल् भाषां तस्य मातृभाषा तमिल् अस्ति सः किमर्थं प्रथमे स्थाने R1 मध्ये तमिल् न स्वीकरिष्यति करिष्यति तस्य अधिकारः अस्ति एकत्र तु भवान् वदति कि भवान् शिक्षायाः माध्यममपि मातृभाषा भवतु प्रादेशिकभाषा भवतु अन्यत्र भवान् वदति कि R1 मध्ये केवलं चतस्रः भाषा एतत्तु तत्र किं समन्वय समस्या नास्ति। अतः स्पष्टता किञ्चित् करणीया अस्ति। अहं तु
अत्रोपि मतलब भवद्भिः तत्र अभिकरणैः एतद् अभियाच्यते यत् अस्य स्पष्टता भवतु इति। अन्ये अपि तथैव विचिन्तयन्तः सन्ति, विद्यालयेषु अहमपि गच्छामि। अस्तु महोदय, अधुना भवता सम्भाषणार्थं नैजः समयः कल्पितः, एतदर्थं भवते भूयांशौ धन्यवादाः।
सुधयः श्रोतारः, युवराज सुमिताभ्याम् साधुवादान् व्याहरन्तः सम्प्रति वयम् अग्रेसरामः संस्कृत दिग्दर्शन विभागम् प्रति, यत्र मुदिता भगिनी अस्मान् सूचयति किन्नु खलु प्रचलति संस्कृत जगति, के किञ्च कुर्वन्ति कुर्वन्तश्च सन्ति संस्कृतस्य प्रचार प्रसारायति।
रविवासरे अक्षय तृतीया पर्वणि नवदिल्ल्यां संस्कृत भारत्याः नूतन भवनस्य लोकार्पणम् अभवत्। प्रणव नामक इदं भवनं संस्कृत प्रचारस्य केन्द्रं भविष्यति। अप्रैल त्रयोदश्यां केन्द्रीय संस्कृत विश्वविद्यालयस्य जयपुर परिसरे नारी शक्ति वन्दनाधिनियमम् अधिकृत्य जागरूकता कार्यक्रमः समायोजितः। अस्मिन् कार्यक्रमे 70+ जनाः प्रतिभागिताम् अकुर्वन्। अप्रैल चतुर्विंश्यां शुक्रवासरे केन्द्रीय संस्कृत विश्वविद्यालयस्य जयपुर परिसरे आदिशंकर जयन्तीमुपलक्ष्य एका संगोष्ठी आयोजिता, यत्र विद्वद्भिः भगवतः आदि शंकराचार्यस्य विचारेषु परिचर्चा कृता। धन्यवादः।
साधुवादाः श्रीमत्यै मुदितायै। स्नेहपूर्णाः श्रोतारः, वयं सर्वे विजानीमः यत् बालाः अस्माकं जीविताः अमूल्यनिधयः भवन्ति। तेषां मार्गदर्शनाय बालमनोवल्लरी इत्याख्ये अग्रिमे भागे अस्ति कोमलकण्ठिका डाक्टर् साधना शर्मावर्या। स्वागतमस्ति भगिन्याः साधनायाः।
बालाः यथा वयं सर्वेऽपि जानीमः यत् इदानीम् एव पृथिवी दिवसः प्रचलति स्म, यः एव चाणक्यी नवमी अपि आसीत्। तर्हि एतेषां मध्ये एव पृथिव्याः कुक्षेः उत्पन्नां मातरं जानकीं स्मरामः। सीता जनकनन्दिनी भूमेः उत्पन्ना श्रीरामस्य पत्नी जाता। पितृवचनपालनाय रामः वनं गतवान्, सीता अपि तेन सह अगच्छत्। तत्र रावणेन तस्याः हरणं कृतम्, किन्तु तत्रापि सा स्वपवित्रतां न त्यक्तवती। अनन्तरं युद्धे रामः रावणं हतवान्, सीतां च आनीतवान्, परन्तु लोकमर्यादां रक्षितुं सा पुनः वनं प्रेषिता। वाल्मीक्याश्रमे सा लवकुशयोः पालनं कृत्वा तान् वीरान् धर्मनिष्ठान् च अकरोत्। अन्ते सा भूमौ लीना जाता। तर्हि बालाः, अस्यां कथायां का अस्ति शिक्षा? शिक्षा वर्तते त्यागः, धैर्यं, पवित्रता च जीवनस्य महत्वपूर्णाः सन्ति गुणाः। माता सीता आदर्शा नारी, आदर्शा माता च आसीत्। जयतु संस्कृतं, जयतु भारतम्।
उत्तमं। साधनायै जानकी नवम्याः अवसरे समसामयिक विषय प्रस्तावाय साधुवादान् समर्प्य अग्रेसरामः। मित्राणि, अस्माकं देशः अनेक वर्णैः, भाषाभिः, वेशभूषाभिः, व्यञ्जनैश्च युक्तः समग्रः सजीवश्च इन्द्रधनुषः अस्ति। अस्य इन्द्रधनुषस्य कैश्चित् भाषिकवर्णैः सह एकं भारतं श्रेष्ठं भारतम् इत्युपक्रमे समुपस्थितास्ति निधिः झा। सा श्रावयति कानिचन विभिन्न भाषा भाषित वाक्यानि।
प्रथमं वाक्यमस्ति, भूदिवसः प्रतिवर्षं अप्रैल मासस्य 22 दिनांके आचर्यते। हिंदी भाषा में पृथ्वी दिवस हर वर्ष 22 अप्रैल को मनाया जाता है। ओडिया भाषा में पृथ्वी दिवस प्रतिवर्ष 22 अप्रैल रे पालित हुए। द्वितीयं वाक्यमस्ति, अस्मिन् दिने वयं पर्यावरण रक्षणस्य संकल्पं कुर्मः। हिंदी भाषा में इस दिन हम पर्यावरण की रक्षा का संकल्प लेते हैं। ओडिया भाषा में एहि दिन में पर्यावरण र सुरक्षा करिबा पाई संकल्प नहीं थाओ। तृतीयं वाक्यम अस्ति, वयं वृक्षान् रोपयित्वा पृथ्वीं हरिताम कर्तुं प्रयत्नं कुर्मः। हिंदी भाषा में हमें पेड़ पौधे लगाकर पृथ्वी को हरा भरा बनाना चाहिए। ओडिया भाषा में आमे वृक्ष रोपण करी पृथ्वी को हरा भरा करिबा उचिता।
धन्यवाद। धन्यवादभरितभावैः सह निध्यै साधुवादाः समर्प्यन्ते। प्रियाः सुधयः श्रोतारः, कार्यक्रमस्य नूतनतायै भवतां मेलमाध्यमेन सम्प्रेषिताः प्रतिक्रियाः अस्मान् प्रेरयन्ति। एतदर्थं वयं कार्तज्ञभावान् प्रकटयामः। भवन्तश्च कार्यक्रमसम्बद्धाः स्वीयप्रतिक्रियाः ईमेलमाध्यमेन एवमेव प्रेषयितुं प्रार्थ्यन्तेऽपि। अस्माकम् ईमेल संकेतो वर्तते samskritsaptahiki@gmail.com इति। साम्प्रतं तु समागतास्ति अङ्कस्यास्य विरामवेला। प्रयाणाय च सम्प्रति अनुज्ञापयन्तु भवन्तः। पुनः नवमेकं रञ्जकम् अङ्कमादाय यथासमयं पुनर्मिलामः। तावत्पर्यन्तं सर्वेभ्यः सादरम् अभिवादनं। भवतु तावत् शुभं मङ्गलञ्च।